नमस्सर्वेभ्यः। व्योम संस्कृत पाठशालायाः इयं नूतन प्रस्तुतिः छन्दः इति। अयम् अस्य वर्गस्य प्रथमः पाठः, परिचयात्मकः। वागीशाद्या सुमनसः सर्वार्थानामुपक्रमे यन्नत्वा कृतकृत्या स्युः तन्नमामि गजाननम्। शारदा शारदाम्भोजवदनावदनाम्बुजे सर्वदा सर्वदास्माकम् सन्निधिम् सन्निधिम् क्रियात्। गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमम् शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। छन्दः इति अयम् नूतनः वर्गः। अस्य वर्गस्य उद्देश्यानि भवन्ति छन्दसाम् मूलभूत अंशानाम् ज्ञानम्, छन्दशास्त्रे उपयुज्यमानानाम् पारिभाषिकपदानाम् ज्ञानम्, लघुगुरुप्रस्तारः। छन्दः ज्ञातुम् लघुगुरुप्रस्तारः बहु मुख्यः भवति, तस्य ज्ञानम्। गणाः छन्दशास्त्रे अष्टौ गणाः भवन्ति, तेषाम् ज्ञानम्। तथा प्रसिद्धानि कानिचन समवृत्तानि, प्रायः पञ्चदश समवृत्तानाम् लक्षणम् उदाहरणम् च वयम् जानीमः। अस्मिन् प्रथमे पाठे छन्दः इति पदस्य कः अर्थः, छन्दशास्त्रस्य परम्परा कीदृशी इति जानीमः। शिक्षा, व्याकरणम्, छन्दः, निरुक्तम्, ज्योतिषम् तथा कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः इति षट् वेदाङ्गानि उच्यन्ते। तेषु वेदाङ्गेषु छन्दः इत्यपि अन्तर्भवति, अतः छन्दशास्त्रम् वेदाङ्गतया प्रसिद्धमस्ति। छन्दः इति पदस्य कः अर्थः इति पश्यामः चेत्, छन्दयति, आह्लादयति, आनन्दम् जनयति इति छन्दः इत्युच्यते। छन्दः शब्दस्य बहवः अर्थाः सन्ति। वेदः इत्येव अर्थः अस्ति पाणिनीयसूत्रेषु। छन्दसि छन्दसि इति बहुत्र वैदिकप्रयोगान् उद्दिश्य पाणिनिः कथयति। पद्यम् इति अर्थः सामान्यतः अस्ति। इच्छा, स्वच्छन्दम् इति वदामः इच्छानुसारम्, अतः इच्छा इत्यपि अर्थः अस्ति। अस्मिन् प्रसङ्गे यदा श्लोकानां विषये अथवा पद्यानां विषये वयं छन्दः इति वदामः, तत्र साहित्यदर्पणे उच्यते छन्दोबद्धपदं पद्यम्। पद्यं नाम किम् इति चेत्, छन्दोबद्धं यत् पदं भवति तदेव पद्यम्। तर्हि छन्दः नाम किम्? अक्षराणां विन्यासविशेषः। केन क्रमेण पद्ये अक्षराणि संयोजनीयानि इति केचन नियमाः सन्ति। तेषां नियमानामेव सामान्यतः छन्दः इति नाम। तत्र भिन्नाः विन्यासाः भवन्ति, भिन्नेषु विन्यासेषु भिन्नं सौन्दर्यं भवति। एवञ्च पद्यकाव्ये अक्षराणां विन्यासः छन्दः इति कथ्यते। छन्दशास्त्रपरम्परां पश्यामः चेत्, आदौ छन्दस्सूत्राणि पिङ्गलाचार्येण प्रणीतानि। एतानि एव छन्दस्सूत्राणि वेदाङ्गत्वेन प्रसिद्धानि। वेदे मन्त्राः भिन्नेषु छन्दस्सु निबद्धाः सन्ति, तेषां छन्दसां विवरणम् अत्र छन्दस्सूत्रेषु क्रियते। एवमेव कात्यायनेन सर्वानुक्रमणी इत्यस्यामपि केषाञ्चन छन्दसां विवरणं दीयते। भरतमुनेः नाट्यशास्त्रे केषुचित् अध्यायेषु, एवम् अग्निपुराणे केषुचित् अध्यायेषु अपि छन्दसां विषयः उच्यते। अनन्तरं विशिष्य छन्दसाम् एव निरूपणार्थम् अपि बहवः ग्रन्थाः विरचिताः सन्ति. श्रुतबोधः इति ग्रन्थः, तस्य कर्ता कालिदासः इति वदन्ति, किन्तु सः कालिदासः महाकविः कालिदासः वा अन्यः वा इत्यत्र निर्णयः नास्ति. जयदेवेन छन्दोविचितिः इति कश्चित् ग्रन्थः रचितः. गङ्गादासस्य छन्दोमञ्जरी, केदारनाथस्य वृत्तरत्नाकरः, एते सर्वेपि ग्रन्थाः छन्दसां निरूपणं कुर्वन्ति. अस्मिन् वर्गे वयं प्राधान्येन वृत्तरत्नाकरे उक्तानि लक्षणानि आश्रित्य छन्दसाम् अध्ययनं कुर्मः. अयं छन्दः इति वर्गस्य प्रथमः पाठः आसीत्. अत्र वयं छन्दः इति पदस्य अर्थं ज्ञातवन्तः. पद्यकाव्येषु छन्दः इति आनन्ददायकः कश्चित् वर्णविन्यासः इति कथयितुं शक्यते. छन्दः वेदाङ्गं भवति. छन्दसूत्राणि पिङ्गलाचार्येण प्रणीतानि. अन्ये अपि बहवः छन्दशास्त्रग्रन्थाः सन्ति, येषु वृत्तरत्नाकरम् आश्रित्य वयम् इतः परं छन्दसाम् अध्ययनं कुर्मः.